इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। भारत मॉरिशस देशौ स्वसम्बन्धान् वर्धित सामरिक सहभागित्वं प्रति अधिगतवन्तौ, अपि च सागरीय सुरक्षां समेत्य अनेकेषु क्षेत्रेषु सहयोगं समेधितुं स्थानीय मुद्रासु व्यापारं च वर्धयितुं अष्टसन्धिपत्राणि हस्ताक्षरितवन्तौ। एषः निर्णयः प्रधानमन्त्रिणः नरेन्द्रमोदिनः मॉरिशस देशस्य प्रधानमन्त्रिणः डॉक्टर नवीन चन्द्र राम गुलाम इत्येतस्य च मध्ये पोर्ट लुइस इत्याख्ये स्थले प्रतिनिधिमण्डलस्तरीय वार्तावधौ निर्णीतः। वार्तानन्तरं श्रीमोदी वैश्विक दक्षिणाय भारतस्य नवीनस्य दृक्पातस्य घोषणाम् अपि विहितवान्। तस्य नाम महासागरः उतवा क्षेत्रेषु सुरक्षायाः विकासस्य च कृते पारस्परिकी प्रगतिः इति कृतवान्। उपवेशनावधौ श्रीमोदी एतस्मिन् क्षेत्रे उभयोः देशयोः संयुक्त लक्ष्यान् अवलोक्य मॉरिशस देशाय रक्षा सुरक्षावश्यकतायाः प्रबलीकरणे भारतस्य सततं समर्थनं साहाय्यं च पुनरावर्तितवान्। मॉरिशस देशस्य द्विदिवसीय यात्रायाः द्वितीये अन्तिमे च दिवसे प्रधानमन्त्री मॉरिशस देशस्य राष्ट्रिय दिवस समारोहे भागं स्वीकृतवान्। अत्रावधौ मॉरिशस देशस्य राष्ट्रपतिः धर्मबीर गोखुलः भारत मॉरिशस देशयोः सहकार्येषु तस्य अप्रतिम योगदानाय श्रीमोदिने ग्रैंड कमांडर ऑफ द ऑर्डर ऑफ द स्टार एंड की ऑफ द इंडियन ओशन इतीदं सम्मानं प्रदत्तवान्। एतदनन्तरं प्रधानमन्त्री मॉरिशस देशस्य यात्रां सम्पूर्य भारतं प्रत्यागतवान्। लोकसभायाः स्वीकृतेः अनन्तरं संसदा तैलक्षेत्रं विनियमनं विकास संशोधनं विधेयकं 24,000,000 पारितम्। इदं तैलक्षेत्र विधेयके 48,000,000 वर्षे संशोधनं कर्तुमिच्छति। इदं संशोधित विधेयकं खनिज तैलानां परिभाषां विस्तारयति, यस्मिन् प्राकृतिक रूपेण समुपलब्धाः हाइड्रोजन कोलबेड मिथेन शेल वायवः सम्मिलिताः वर्तन्ते। एतस्मिन् विधेयके स्पष्टं जातं यत् कृष्णांगार लिग्नाइट हीलियम इत्यादयः खनिज तैलेषु नैव सम्मिलिताः भविष्यन्ति। एकस्य प्रश्नस्य प्रत्युत्तरे प्राकृतिक वायुमन्त्री हरदीप सिंह पुरी सूचितवान् यत् भारतं वर्तमान समये 40 देशेभ्यः आयातं करोतीति। भारतं आपूर्ति स्रोतानां मध्ये भिन्नतां नैव प्रदर्शयति। अत्रावधौ होली पर्व समाश्रित्य संसदः उभयोः सदनयोः कार्याचरणं सोमवासरं यावत् स्थगितम्। पाकिस्तान देशे बोलन जनपदे जाफर एक्सप्रेस इत्येतस्मिन् यात्रिणां रेलयाने जाताक्रमणस्य अनन्तरं बलूच लिबरेशन आर्मी इत्येतस्य बलस्य योद्धृणां पाकिस्तान देशीय सेनायाः मध्ये गतिरोधः 24 होरायाः पश्चादेव सम्पन्नः। सुरक्षा सूत्रानुसारि आक्रमणकारिणः निष्प्रभावयितुं बन्धकानां रक्षणार्थं च सैन्याभियानं सम्पन्नम्। केन्द्रीय सूचना प्रसारण रेलमन्त्री अश्विनी वैष्णवः स्पेस एक्स इत्येतस्य स्टारलिंक इत्येतस्य उपक्रमस्य भारतीयापणे प्रवेशानन्तरं तस्य स्वागतं कृतवान्। उक्तवान् च यत् एतद्धि दूरवर्तीनां क्षेत्राणां रेलपरियोजनाभ्यः उपयोगी भविष्यति। विमेन्स प्रीमियर लीग इत्येतस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य सायंकाले मुम्बय्याः ब्रेबॉर्न क्रीडांगणे मुम्बई इण्डियन्स गुजरात जायंट्स दलयोर्मध्ये अपनयनात्मके द्वन्द्वे प्रतिस्पर्धा भविष्यति। अस्याः प्रतिस्पर्धायाः प्रसारणं 7:30 भविष्यति। दिल्ली कैपिटल्स दलं यथा पूर्वमेव दशांकैः सह शीर्षस्थानं सम्प्राप्य प्रतियोगितायाः निर्णायकचक्रे पूर्वमेव प्रविष्टवत् इति वार्ताः।